गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र सम्बन्धस्य अवच्छेदकता तस्मिन् विषये वयम् एकं करपत्रं पठितवन्तः तत्र करपत्रं नाम तत्र तत्र समयसम्बन्धेन घटे तत्र कप भूतले घटः नास्ति इति तस्य वाक्यस्य अर्थः कः तत्र निरर्थकं वाक्यं वा किम् इति तस्मिन् विषये करपत्रमासीत् तं करपत्रमादाय तत्र जयलक्ष्मीभगिन्याः उपस्थापनम् आदौ वर्तते जयलक्ष्मीभगिनी कृपया
आं महोदय नमस्ते महोदय नमः सर्वेभ्यः अद्यतन उपस्थापनं गतसप्ताहे अस्माभिः यत् पठितं भूतले समवायसम्बन्धेन घटो नास्ति इति विषयास्पदम् अस्ति अत्र प्रतिपक्षीसिद्धान्तिनोः वादः प्रतिपाद्यते प्रतिपक्षी वदति कस्मिंश्चित् प्रतले घटः वर्तते सः घटः संयोगसम्बन्धेन भूतले अस्ति न तु समवायसम्बन्धेन इति वदति तर्हि कथं वा वदेत् भूतले समवायेन घटः नास्ति इति घटस्य अस्तित्वं तु अस्ति खलु इति सिद्धान्ती प्रवदति समवायसम्बन्धः अवयव अवयविनोः भवति घटः अवयवी अस्ति कपालः अवयवः तयोः मध्ये समवायसम्बन्धः अस्ति न तु भूतलघटयोः मध्ये नैयायिकाः सामान्यतया यत् नास्ति तस्य अभावः अस्ति इति वक्तुम् इच्छन्ति अत्रापि समवायसम्बन्धः नास्ति इति वदनात् समवायसम्बन्धस्य अभावः अस्ति भूतले इति कथनम् उचितम् किन्तु प्रतिपक्षी वादयति यत् घटः भूतले समवायसम्बन्धेन नास्ति अपि तु संयोगसम्बन्धेन अस्ति इति तु समीचीनम् किन्तु एतत् निरर्थकं वाक्यं यतोहि घटः भूतले साक्षात् अस्ति घटस्य अभावः तु नास्ति किन्तु समवायेन घटः अस्ति इति च न वक्तुं शक्नुमः तर्हि किं वदेत् सिद्धान्ती वदति घटः अस्ति इति सत्यं घटाभावः नास्ति इति च सत्यम् अपि च समवायसम्बन्धेन घटः भूतले नास्ति एतदपि सत्यम् इदानीं सत्यं कथं प्रदर्शनीयम् अथवा समर्थनीयम् तदर्थम् एकम् उदाहरति यथा चैत्रः धनवान् धनम् अस्य अस्ति इति धनवान् किन्तु धनं हस्ते नास्ति अपि तु वित्तकोषे अतः चैत्रस्य संयोगसम्बन्धेन धनं नास्ति अथवा धनाभावः अस्ति कीदृशः धनाभावः इति चेत् संयोगसम्बन्धावच्छिन्नधनाभावः अस्ति चैत्रे स्वस्वामिभावसम्बन्धेन धनं तु अस्ति अतः स्वस्वामित्वसम्बन्ध अवच्छिन्नधनाभावः नास्ति एवं रीत्या प्रकृतौ यद्यपि घटः भूतले अस्ति संयोगसम्बन्धेन समवायसम्बन्धेन घटाभावः अस्ति कीदृशः घटाभावः इति पृच्छामः चेत् समवायसम्बन्धावच्छिन्नप्रतियोगितानिरूपितघटाभावः तादृशघटाभावः अस्ति यस्मिन् समवायसम्बन्ध अवच्छेदकता अस्ति इत्युक्ते यस्मिन् घटे समवायसम्बन्ध अवच्छेदकः प्रतियोगिता अस्ति तादृशघटस्य अभावः भूतले अस्ति एतादृशं भूतले समवायसम्बन्धेन घटो नास्ति इत्यस्य अर्थः प्राप्यते अभावः प्रतियोगिभेदेन भिन्नः भवति इति च अत्र उक्तं प्रतियोगिता अवच्छेदकसम्बन्धभेदेन प्रतियोगिता अवच्छेदकधर्मभेदेन च भिन्नः अभावः भिन्नः भवति प्रतियोगिता अवच्छेदकसम्बन्धभेदेन अभावः भिन्नः इति पूर्वं दृष्टमस्ति यत्र धनसम्बन्धे संयोगसम्बन्धावच्छिन्नप्रतियोगिता कः धनाभावः अस्ति स्वस्वामित्वसम्बन्ध अवच्छिन्नप्रतियोगिता कः धनाभावः नास्ति इत्यस्मिन् वाक्यात् इत्यस्मात् वाक्यात् इदानीं प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः इत्यत्र उदाहरति यत्र भूतले पटः नास्ति किन्तु खटः अस्ति इत्यस्यां स्थित्यां भूतले संयोगसम्बन्धेन द्रव्यं नास्ति इति वक्तुं न शक्नुमः अतः भूतले द्रव्यत्व अवच्छिन्न प्रतियोगिताकः पटाभावः इति नास्ति किन्तु केवलं पटत्व अवच्छिन्न प्रतियोगिताकः अभावः एव अस्ति एवञ्च प्रतियोगितावच्छेदकधर्मभेदेन अभावः भिन्नः इति ज्ञायते एवं रीत्या पृथक् पृथक् प्रतियोगिताः तथा च पृथक् पृथक् अभावाः सन्ति इति उपस्थापनं समाप्तम्
धन्यवादः भगिनी हा समीचीनम् अतः तत्र सारांशः कः नाम तत्र अभावः एकः विध अभावः इति नास्ति घटाभावः तत्र भूतले एकः एव इति न चिन्तनीयं तत्र साधारण अभावः तत्तु तत्र संयोगसम्बन्धावचिन्न प्रतियोगितानिरूपित घटाभावः किन्तु तत्र यदि तत्र अन्यः सम्बन्धः तत्र स्थापितः भवति चेत् तत्र तादृश तत्र यथा जयरक्षणभगिनी उक्तं तत्र प्रतियोगिता भिन्ना अस्ति चेत् अनियोगिता भिन्ना भवति तया तत्र अभावः अपि भिन्ना भवति अतः तत्र सम्बन्धः भिन्नः भवति चेत् प्रतियोगिता भिन्ना भवति तेन तत्र अभावः अपि भिन्ना भवति अतः तत्र संयोगसम्बन्धावचिन्ना प्रतियोगिता क अभावः निरूपित तादृश अभावः भिन्नः अपि समवायसम्बन्धावच्छिन्न प्रतियोगिता यत्र अस्ति तया निरूपित तत्र अभावः तदपि भिन्नः अस्ति इति सारांशः हा समीचीनं भगिनी हा धन्यवादः
धन्यवादः महोदय
तत्र नाम तत्र समवायसम्बन्धेन भूतले घटः नास्ति इति तत्र घटाभावः एव वार्ता तत्र संयोगसम्बन्धस्य अभावः इति न वार्ता किन्तु घटस्य अभावः एव वार्ता किन्तु कीदृशघटाभावः इति सम्यक्तया वक्तव्यम् अतः तत्र समवायसम्बन्धावच्छिन्न इति आरभ्य यदि वाक्यं रचयामः तत्र ज्ञानस्य निरूपणं सम्यक् रीत्या भवति इति भवति अस्तु समीचीनम् अस्तु अतः तत्र अग्रे सरामः तत्र नूतनतया तत्र के आगतवन्तः तत्र शुभदा भगिनी नमस्कारः प्रेमलता भगिनी नमस्कारः दीप्ति भगिनी नमस्कारः
नमस्कारः महोदय
धनश्री भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः नरसिंह योगेन्द्रमहोदय पूर्वमासीत् हा नरसिंहमहोदय नमस्कारः
नमस्कारः
अस्तु तर्हि तत्र आरम्भं कुर्मः तत्र इदानीं तत्र अग्रिमकरपत्रस्य पठनं तत्र स्क्रीन् शेर् कुर्वन्नस्मि तत्र दृश्यते वा न दृश्यते न गतं न एकनिमिषम् अस्तु इदानीं तत्र द्वितीयकरपत्रं यत् अस्ति स्वरूपमहोदयस्य तं करपत्रं तत् करपत्रं पठामः तर्हि अस्तु तत्र अन्ना भगिनी आरम्भं करोति वा करपत्रं दृश्यते वा
करपत्रं दृश्यते
अस्तु तत्र यथा तत्र वेब्सैट् मध्ये इदानीं करपत्रं न प्राप्तुं शक्नुमः इति मन्ये अतः तत्र अस्तु
न तत्र भवान् प्रेषितवान् वेबेक् मशीन् तत्र प्राप्तं
हा अस्तु भगिनि समीचीनं हा अस्तु हा
अस्तु अत्र एव पठामि. षत्रिंशत्तमे पुटे एवं लिखितं भूतलं गताभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्ग संसर्गमादय चिन्त्यम् प्राकृतम् अनुसरामः सर्वे अपि पदार्थाः स्वस्मिन् तदात्म्यसम्बन्धेन भवति तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्याभावः भेदः सः च चतुर्थः अभावः तदात्म्यसम्बन्धस्य प्रातियोगिता अवच्छेदकत्वम् उपरिष्टात् सधयिष्यते इति अलम्
पूर्णतया पठतु भगिनि. तत्र प्रश्नः अस्ति अतः कृपया मम संशयं निवारयतु तावत्पर्यन्तम्.
अत्र उक्तं भूतलं घत अन्योन्याभाववात् इति ज्ञानस्थले तदात्म्यसम्बन्धः वर्तते. भूतलं घत अत्यन्ताभाववात् इति ज्ञानस्थले स्वरूपसम्बन्धः इति खलु. कृपया मम संशयं निवारयतु
इति. अतः तत्र प्रश्नः किमस्ति? प्रश्नः अस्ति अत्र एतस्य भूतलं घटाभवत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गमादाय चिन्त्यम् इति आदौ तत्र किञ्चित् तत्र प्रश्नः कः इति.
भूतले भूतलं घटाभवत् इति केन रूपेण एषः अभावः तत्र अस्ति?
हा नाम तत्र भूतलस्य भूतले घटः नास्ति इति अस्ति चेत् अतः तत्र भूतलमस्ति तत्र घटः नास्ति अतः घटः भावः अस्ति भूतले खलु. घटाभावत् भूतलमिति अतः तत्र अत्र अभावः तत्र अभावस्य अवच्छेदकः तत्र नाम दैशिकविशेषणता संसर्गमादाय चिन्त्यमिति अत्र तत्र केन सम्बन्धेन घटाभावः भूतले अस्ति वदति वा? तत्र अभावः घटाभावः भूतले केन सम्बन्धेन अस्ति?
न जानामि.
स्वरूपसम्बन्धेन.
स्वरूपसम्बन्धेन तत्र स्वरूपसम्बन्धेन स्वरूपसम्बन्धः तस्य अन्यनाम अस्ति तत्र स्वरूपसम्बन्धः अथवा दैशिकविशेषणता इति समान तत्र केवलं नामकरणं स्वरूपसम्बन्धः अथवा दैशिकविशेषणता तत्र स्वरूपसम्बन्धः इति एव तत्र भवति. इदानीं तत्र संसर्गः इत्युक्ते कः? संसर्गमादाय इति तत्र संसर्गता कुत्र वर्तते?
ज्ञाने.
ज्ञाने हा किन्तु तत्र यदि भूतलं घटाभावत् इति अस्ति चेत् तत्र विषयताथ्रयं वर्तते खलु तत्र ताः काः इति स्मरति वा अथवा अन्य कोऽपि वदेत्
अन्य कोऽपि वदतु.
चिन्ता मास्तु. तर्हि तत्र धनश्री भगिनी तत्र किञ्चित् वदति वा? तत्र
आमां तत्र त्रयः भागाः भूतलं तत्र सम्बन्धः अस्ति स्वरूपसम्बन्धः अनन्तरम् अभावः तत्र ज्ञानस्थले यः सम्बन्धम् अवच्छिन्न ज्ञानमस्ति तत्र तस्य संसर्ग इति नाम.
किन्तु तत्र पूर्वं यदा तत्र विषयः अपि ज्ञानम् इति तस्मिन् विषये वयं चिन्तितवन्तः तत्र यदा तत्र भूतलं घटाभावत् अस्ति चेत् तत्र यत् आदौ तत्र अधिकरणं यदस्ति तस्य तस्मिन्
विषयता संसर्ग
हा तस्य विषयता विशेष्यता इति आसीत् खलु
विशेष्यता
अत्र घटाभावे सः विशेषणं विशेषणे किं भवति विषयतायाः नाम आसीत् अत्र विशेष्यता अत्र अस्ति
विशेषता
हा अपि अत्र
संसर्गिता विशेषता
हा तत्र हा प्रकारता हा प्रकारता अत्र अस्ति तत्र प्रकारता उपरि अस्ति अधौ तत्र अत्र विशेष्यता अस्ति तत्र विषयता त्रयम् आसीत् प्रकारता विशेष्यता अपि सम्बन्धे संसर्गता अतः तत्र संसर्गम् आदाय नाम तत्र स्वरूपसम्बन्धः इति संसर्गम् आदाय चिन्त्यम् इति अस्ति इति वाक्यम् अत्र दत्तम् अस्ति अतः तत्र घटाभाववत् इति भूतलं घटाभाववत् इति अस्ति तत्र अभावः एकविधः इति एव नास्ति अतः तत्र अन्योन्य अभावः अपि अस्ति खलु अत्र अस्ति अत्र भूतलं घटाभावत् इति ज्ञानस्थले इति उक्तं यत् वयम् अत्र चित्रेण कृतवन्तः तत्र वयं चिन्तयामः तत्र अन्योन्य अभावः वा अत्यन्त अभावः यदि साधारणतया वयं वदामः भूतलं घटाभावत् तत्र किं भवति धनश्री भगिनि अत्यन्तः भावः इति एव चिन्तनं खलु साधारणतया नाम तत्र ओ भूतले घटः नास्ति इति चिन्तयामः खलु यदि वयं वदामः भूतलं घटाभावत् अस्तु भूतले घटः नास्ति इति चिन्तयामः तत्तु अत्यन्त अभावः किन्तु अन्योन्य अभावः अपि भवितुम् अर्हति खलु अस्मिन् वाक्ये अन्योन्य अभावः अपि भवितुम् अर्हति अत्र न लिखितम् अत्यन्त अभावः इति केवलम् केवलम् अभावः इति एव लिखितम् अतः तत्र प्रश्ने यत् पूर्वमासीत् पुस्तके तद् तस्य स्मरणं कृतमस्ति पुनः एकवारं पठतु भगिनि तत्र
प्रकृतम् अनुसरामः सर्वेऽपि पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवति तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्यभावः नाम भेदः नाम घटः पटः नास्ति इति तादृशं सः च चतुर्थः अभावः तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् उपरिष्टात् साधयिष्यते इति अलम् नाम अत्र तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदक अभावः अपि अस्ति नाम अस्मिन्नेव वाक्ये भूतलं घटाभाववत्
इति चिन्तयामः तादात्म्यसम्बन्धः कुत्र भवति
नाम घटः भूतलः नास्ति इति घटे भूतले भेदः अस्ति तादृशे तादृशम् अर्थमस्ति
किन्तु तस्मात् प्राक् तत्र केवलम् अस्य वाक्यस्य अर्थः कः
सर्वेपि पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवति नाम घटः घटे एव तादात्म्यसम्बन्धेन भवति
हा घटः अस्ति चेत् घटः घटे तादात्म्यसम्बन्धेन भवति पटः पटे तादात्म्यसम्बन्धेन भवति भूतलं भूतले
तादात्म्यसम्बन्धेन
भवति इति हा तत्र सर्वेपि पदार्थाः सर्वेपि पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवति तेन सम्बन्धेन
नास्ति इति अभावः एव अन्योन्यभावः भेदः नाम घटः पटे तादात्म्यसम्बन्धेन न भवति अतः पटे घटस्य अन्योन्यभावः अस्ति
हा इति तत्र एतस्य वाक्यस्य एव तत्र मया तत्र सम्यक्तया न उक्तं भगिनि अतः तत्र अस्य वाक्यस्य तत्र हा अतः तत्र अतः एव पुनः एतस्य करपत्रस्य आवश्यकता अस्ति. हा अस्तु, अतः तत्र अन्योन्याभावः अस्ति, तत्र घटः पटः न इति अन्योन्याभावः. अतः तत्र तादात्म्यसम्बन्धः भवति इति वयं चिन्तयामः. अतः तत्र तादात्म्यसम्बन्ध अपि अत्र उक्तं तादात्म्यसम्बन्धस्य प्रतियोगिता अवच्छेदकत्वम् अपि उपरिष्टात् नाम अग्रे गत्वा साधयिष्यति इति अलम् इति एतत् सर्वं तत्र पूर्वे पुस्तके लिखितं, तत्र लक्षणभागस्य भागात् प्राक् एतत् सर्वं लिखितम्. अस्य अनन्तरमेव तत्र लक्षणभागस्य उद्घाटनं कृतम्. अतः तत्र प्रश्नः कः इत्युक्ते अग्रे पठतु भगिनि. अत्र उक्तम्
अत्र उक्तं भूतलं घट अन्योन्याभाववत् इति ज्ञानस्थले तादात्म्यसम्बन्धः वर्तते. नाम यदि अन्योन्याभावः इति अस्माभिः उक्तमस्ति चेत् तत् तादात्म्यसम्बन्धावच्छिन्न अभावः अस्ति.
हा अतः तत्र प्रश्नः एषः अस्ति, नाम यदि अत्र घटाभावः इति चिन्तयामः, यदि एषः अभावः अत्यन्त अभावः तदा स्वरूपसम्बन्धः भवति, अपि यदि अन्योन्यभावः
तर्हि तादात्म्यसम्बन्धः
इति चिन्तनम् अस्ति अत्र. अतः तत्र प्रश्नः अस्ति एतत् समीचीनं वा इति. नाम
भूतलं घट अत्यन्ताभाववत् इति ज्ञानस्थले स्वरूपसम्बन्धः इति खलु. नाम द्वयोरपि तत्र चिन्तनीयं किं, द्वयोरपि सम्बन्धः तत्र चिन्तनीयं सम्बन्धः.
अतः नाम तत्र यदि अत्यन्तः भावः अस्ति चेत् अत्यन्तः भावः स्वरूपसम्बन्धेन भूतले तिष्ठति, यदि यदि अन्योन्याभावः अस्ति चेत् तर्हि तत्र घटाभावः तादात्म्यसम्बन्धेन भूतले वर्तते इति इति प्रश्ने उक्तम्. अस्तु, समीचीनम् अस्तु. तर्हि अग्रे प्रेमलता भगिनी अग्रे पठति वा, एकवारं तत्र तस्मात् प्राक् एकवारं प्रश्नः कः इति किञ्चित् वदति वा.
कुतः पठ प्रकृतमनुसरामः इति
न इति एतावत् वयं किं चर्चितवन्तः, नाम प्रश्नः कः, तत्र कृपया मम संशयं निवारयतु इति लिखितमस्ति, नाम संशयः कः.
भूतलं घटाभाववत् इति ज्ञानस्थले दैहिकविशेषणतया संसर्गमादाय चिन्त्यम्
इति पुस्तके लिखितम्
उक्तमस्ति, पुस्तके लिखितमस्ति. अत्र भूतलं घट भूतलं घट अन्योन्याभाववत् इति ज्ञानस्थले भवति, तत्र तादात्म्यसम्बन्धः वर्तते इति तु लिखितमस्ति. सम्बन्धः तादात्म्यसम्बन्ध अभावस्य तादात्म्यसम्बन्धः अपि अभावस्य घटाभावस्य घटाभावः भूतले तादात्म्यसम्बन्धेन अपि स्वरूपसम्बन्धेन अपि भवितुम् अर्हति इति.
एकविध अभावः स्वरूपसम्बन्धेन भवति, अन्यविध अभावः तादात्म्यसम्बन्धेन भवति इति
इति
प्रश्ने उक्तं. नाम
उक्तं
नाम एतस्य सर्वे अवगच्छन्ति इति मन्ये, तत्र अत्र यत् लिखितं पुस्तके तत्र उक्तं तु दैशिकविशेषणता नाम स्वरूपसम्बन्धः. अतः तत्र अभाववत् इति नाम अभावः भूतले
भूतले
अस्ति इति लिखितम्. एतत् पुस्तके एतावत् पुस्तके अस्ति. इदानीम् अन्यस्मिन् भागे पुस्तके एव अन्यस्मिन् भागे एतत् लिखितम् अस्ति. अतः तत्र प्रश्नः अस्ति एतस्य पठनेन प्रश्नः भवति, तत्र तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्याभावः भेदः इति तस्य वाक्यस्य पठनेन एतत् प्रश्ने भवति भूतलम् अङ्घट अन्योन्या भावतीति ज्ञानस्थले तादात्म्यसम्बन्धः वर्तते. नाम यदि वयं वदामः तत्र भूतले घटः नास्ति तत्र कीदृशः अभावः, अत्यन्तः अभावः वा अन्योन्याभावः वा?
अत्यन्ताभावः.
अत्यन्ताभावः. तदा अत्यन्ताभावः स्वरूपसम्बन्धेन तिष्ठति. अपि अत्र तादात्म्यसम्बन्धेन नास्ति अभा इति अभावः इति अतः तत्र चिन्तितमस्ति. अस्तु, तत्र यदि वयं वदामः भूतलं घटः न इति, इति यदि तादृशज्ञानमस्ति तदा घटस्य अभावः अन्योन्याभावः सम्बन्धेन भूतले तिष्ठति खलु इति प्रश्ने उक्तम्. भेदः भवति वा इति प्रश्नः. अतः तत्र हा नाम अभावः अन्यो अत्यन्तः अभावः स्वरूपसम्बन्धेन भूतले वर्तते, किन्तु अन्योन्याभावः तादात्म्यसम्बन्धेन भूतले वर्तते इति सत्यं वा इति संशयः. सर्वे अवगच्छन्ति वा अत्र संशयः कः इति? घटस्य अत्यन्तः अभावः तत्र स्वरूपसम्बन्धेन भूतले वर्तते, किन्तु घटस्य अन्योन्याभावः तादात्म्यसम्बन्धेन तिष्ठति. तत्र केवलम् उदाहरणरीत्या स्वीकृतं यत् प्रश्ने, तत्र यत्र अन्योन्याभावः अस्ति तद् अन्योन्याभावः तादात्म्यसम्बन्धेन वर्तते, अधिकरणे अपि अत्यन्तः अभावः अस्ति चेत् तत्र स्वरूपसम्बन्धेन तिष्ठति वा इति प्रश्नः. अस्तु, अग्रे इदानीं तत्र अग्रे तत्र उत्तरम् इति ततः आरभ्य पठतु.
उत्तरमस्ति भूतलं घट अन्योन्याभाववत् इति ज्ञानस्थले तादात्म्यसम्बन्धः वर्तते इति तु ग्रन्थकारेण न उक्तम्.
नाम एतत् एतत् समीचीनम् इति मा चिन्तयन्तु इति तत्र अन्यत्
अत्र नास्ति अभावः अनयो भेदः अवगन्तव्यः. नाम नास्ति नास्ति इत्यर्थः भवति अभावः इति, बट् परन्तु नास्ति अभावः मध्ये एतद् अनयोः भेदः वर्तते, भेदः अवगन्तव्यः अस्माकम् एतद् भवति अवगमनं भवति.
तत्र नास्ति इति वदामः अभावः इति अपि नास्ति इत्युक्ते अभावः अभावः इति चिन्तयामः. सामान्यरीत्या समीचीनं, किन्तु तत्रापि किञ्चित् चिन्तनीयम् अवगन्तव्यम् अस्ति.
अग्रे पठामि वा महोदय?
पठतु भगिनि.
घटः भूतले अस्ति इति चिन्त्यताम् केन सम्बन्धेन? संयोगसम्बन्धेन इति. अधुना घटः भूतले नास्ति इति चिन्त्यताम् केन सम्बन्धेन नास्ति? संयोगसम्बन्धेन एव इति उत्तरम्.
एतावत् समीचीनं वा? किञ्चित् वदतु तर्हि.
यः सम्बन्धः स्वीकृत्य भूतले घटः अस्ति इति वदामः तदेव सम्बन्धेन घटः भूतले नास्ति इति वदने समीचीनं भवति.
तत्र यदि वयं वदामः घटः भूतले नास्ति इति यदि कोऽपि वदति, वयं चिन्तयामः अस्तु तत्र संयोगसम्बन्धेन, अस्तु घटः भूतले नास्ति, यदि आसीत् संयोगसम्बन्धेन आसीत् भवेत्. अतः तत्र संयोगसम्बन्धस्य चिन्तनमेव वयं कुर्मः.
तदेव
अस्ति इति आरभ्य नास्ति पर्यन्तं यदि गच्छामः तत्र किं भवति? तत्र घटः भूतले नास्ति इति तत्र संयोगसम्बन्धः एव, तत्र संयोगसम्बन्धेन नास्ति इति चिन्तयामः. इदानीं तत्र एतत् स्वीकुर्मः गन्धः, तत्र गन्धः मास्तु किन्तु अन्यत् किमपि स्वीकुर्मः तत्र किं स्वीकुर्मः तत्र किमपि गुणं स्वीकुर्मः तत्र तत्र रूप इति नीलरूपं नीलरूपम् इति पुस्तके यदि अस्ति केन सम्बन्धेन नीलरूपं पुस्तके भवति अतः सम्बन्धः कः भवति
समवायसम्बन्धः
समवायसम्बन्धेन अतः तत्र नीलरूपं तत्र पुस्तके भवति चेत् समवायसम्बन्धेन
भवति
इदानीं तत्र पुस्तके नीलरूपं नास्ति इति यदि चिन्तयामः तत्र केन सम्बन्धेन नास्ति इति यदि वदामः तत्र किं भवति उत्तरं
समवायसम्बन्धेन अपि
नास्ति
इति एव भवति
यदि वयं नास्ति इति चिन्तयामः तत्र संयोगसम्बन्धः भवति समवायसम्बन्धः अपि भवति खलु अस्तु समीचीनं इदानीम् अग्रे सरामः तत्र अग्रे तत्र
भूतलं घटः एतद् वा एतत्
भगिनि तत्र अग्रिमवाक्यमपि पठतु तदनन्तरम् अन्य कोऽपि पठेत्
किमपि वस्तुः अपरस्मिन् अस्ति चेत् येन सम्बन्धेन अस्ति तेन एव सम्बन्धेन अपि भवति यदा नास्ति
अवगच्छति खलु
कश्चिदपि वस्तुः अपरस्मिन् इतर वस्तुवस्तेन केन सम्बन्धेन अस्ति इति ज्ञानं भवति तेन सम्बन्धेन अपि तस्य अभावः अपि
अभावः इति नास्ति न
केन सम्बन्धेन
केवलं नास्ति इति एव विषयः अभावः इति विषयः नास्ति
तेन सम्बन्धेन अपि नास्ति इति भवति
तत्र रूपं नीलरूपं तत्र पुस्तके समयसम्बन्धेन नास्ति
नीलरूप पुस्तकम् अस्ति नीलरूपं नास्ति चेत् तेन सम्बन्धेन अपि समवायसम्बन्धेन एव नास्ति इति
पुस्तकमस्ति चेत् नीलरूपं पुस्तके समयसम्बन्धे नास्ति इदानीं तत्र रक्तवर्णपुस्तकमस्ति चेत् तत्र नीलरूपं नास्ति नीलरूपं केन सम्बन्धेन नास्ति नीलरूपं समयसम्बन्धेन
नास्ति
किन्तु रक्तरूपं समयसम्बन्धेन अस्ति इति वदामः इति वदामः समीचीनम् अस्तु इदानीम् अग्रे सरामः तत्र
धन्यवादः
समीचीनं भगिनि अस्तु अग्रे तत्र शुभदा भगिनी अग्रे पठति वा
आं महोदय किन्तु तस्य अभावः यदा अस्ति तदा स च अभावः अन्येन सम्बन्धेन भवति घटस्य अत्यन्ताभावः भूतले अस्ति चेत् स्वरूपसम्बन्धेन भवति परन्तु तस्मिन्नेव समये यदि वदामः यत् घटः भूतले नास्ति तर्हि तत्र संयोगसम्बन्धेन नास्ति अस्तु किन्तु तस्य यदा
एतावत् विषयः आसीत् अस्ति नास्ति तत्र नीलरूपं पुस्तके अस्ति इति ज्ञाने तत्र केन सम्बन्धेन भवति पुस्तके नीलरूपं
समवायसम्बन्धेन
रूपं गुणः इति कृत्वा भवति आश्रये. इदानीं तत्र नीलरूपं तत्र पुस्तके नास्ति इति यदि कोऽपि वदति किं केन सम्बन्धेन नास्ति इति
समवायसम्बन्धेन एव नास्ति,
समवायसम्बन्धेन नास्ति इति एव चिन्तनम्. अतः तत्र अस्ति नास्ति तत्र तयोः मध्ये तत्र समानरीत्या वयं व्यवहारं कुर्मः. अस्ति समवायसम्बन्धेन अस्ति, समवायसम्बन्धेन नास्ति इति व्यवहारः भवति. किन्तु
किन्तु
यदि भावः इति विषया आगच्छति तदा अस्माकं चिन्तनं भिन्नरीत्या भवति. कथं प्रथमवाक्यं पुनः वदतु तर्हि.
किन्तु तस्य एव अभावः यदा अस्ति तदा स च अभावः अन्येन सम्बन्धेन भवति. यदा अस्ति नास्ति इति व्यवहारः तु एकमेव सम्बन्धेन एव भवति, परन्तु यदा अभावः इति यदा वदामः चेत् तस्य सम्बन्धव्यवहारः तु अन्यः भवति.
इदानीं तत्र घटः भूतले नास्ति इति तत्र अत्यन्ताभावः वा अन्योन्याभावः वा तत्र
घटः भूतले नास्ति इति अत्यन्त अभावः.
अत्यन्ताभावः घटस्य अनेन तस्य अभावस्य नाशः भवति, एषः अभावः. अस्तु तर्हि तत्र घटस्य अत्यन्ताभावः. इदानीम् अत्यन्ताभावः भूतले अस्ति चेत् तत्र अभावः केन सम्बन्धेन भवति भूतले?
स्वरूपसम्बन्धेन भवति.
स्वरूपसम्बन्धेन भवति. अतः तत्र यदि भूतले घटः आसीत् संयोगसम्बन्धेन भवति खलु. किन्तु अभावः स्वरूपसम्बन्धेन
भवति.
अतः तत्र यदि वयं नास्ति इति वदामः तत्र व्यवहारः भिन्नः, अभावः इति वदामः तत्र व्यवहारः अस्माकं भिन्नः
भिन्नः.
पुनः तत्र परन्तु तस्मिन्नेव समये
यदि वदामः यत् घटः भूतले नास्ति तर्हि तत्र संयोगसम्बन्धेन नास्ति. तदेव उक्तमस्ति. यदि घटः भूतले अस्ति वा नास्ति वा तत्र संयोगसम्बन्धः अस्ति, परन्तु घटस्य अभावः यदि वदामः चेत् तत्र स्वरूपसम्बन्धेन तस्य व्यवहारः भवति इति.
हा, यतोहि अभावः इति कृत्वा अभावः तत्र पारिभाषिकपदं, तत्र न्यायशास्त्रस्य तत्र पदम् अस्ति, पदार्थः अस्ति, सः तु सर्वदा तत्र स्वरूपसम्बन्धेन आश्रये भवति. तत्र स्वरूपसम्बन्धः एव, यद्यपि घटः संयोगसम्बन्धेन भूतले वर्तते अथवा रूपं समयसम्बन्धेन तत्र पुस्तके भवति, किन्तु घटाभावः सर्वदा स्वरूपसम्बन्धेन भूतले भवति. अपि तत्र नीलरूपस्य अभावः पुस्तके स्वरूपसम्बन्धेन
भवति
इति. तत्र अभावस्य विषये स्वरूपसम्बन्धः इति भवति. यदि अस्ति नास्ति इति वदामः तत्र यत्किमपि यत्कोपि सम्बन्धः भवितुम् अर्हति, नाम संयोगः वा समयः वा इति खलु.
आम्, परन्तु महोदय, नास्ति नास्ति इत्यस्य अर्थः एव अभावः इति खलु?
सत्यं सत्यम्, अर्थः तत्र साधारणचिन्तनं सत्यं, किन्तु तेन तत्र तत् चिन्तनम् आधाय वयं चित्रम् एतत् अथवा अन्यस्य ज्ञानस्य परिष्करणं कर्तुम् इच्छामः तदा सावधानं, नाम यदि नास्ति इति चिन्तयामः संयोगसम्बन्धः इति चिन्तनेन तत्र चित्रस्य अथवा ज्ञानस्य निरूपणं कर्तुम् उत्सुकः भवामः, किन्तु तत्र नास्ति अभावः समानम् इति मा चिन्तयतु, नाम संयो नास्ति इति यदि अस्ति तत्र भिन्नः सम्बन्धः भवति, अभावः इति यदि साक्षात् वदामः तत्र सम्बन्धः भिन्नः भवेत् इति. एतस्य एतत् सर्वं किमर्थम् उक्तम् इत्युक्ते तत्र प्रश्नः आसीत् खलु तत्र तादात्म्यसम्बन्धः भवति न वा इति किन्तु तत्र प्रायशः स्पष्टमेव अस्ति नाम तत्र यत् उक्तं तत्र अस्ति नास्ति व्यवहारभिन्नः अभावस्थले व्यवहारभिन्नः सर्वं वयं वदिच्छामः केवलं तत्र प्रदर्शितमस्ति एतस्मिन् विषये सावधानम् इति तावदेव
अस्तु महोदय धन्यवादः
नाम तत्र अस्माकं व्यवहारः कीदृशः इति एव उक्तः अत्र तत्र नूतनं किमपि नास्ति अवगन्तव्यं किन्तु ओ एतादृशं वयं कुर्मः वा इति तत्र हा इति सावधानं तावदेव अस्तु अग्रे अग्रे सरामः तर्हि तत्र अग्रे पद्मा भगिनी पठति वा अग्रे
नमस्ते जि श्रूयते वा
श्रूयते भगिनि
अतः किमपि वस्तु नास्ति अपि च तस्य अभावः अस्ति उभयत्र सम्बन्धः भिन्नः
तत्र रूपं नीलरूपं पुस्तके अस्ति नास्ति अपि अभावः इति उपयुज्य किञ्चित् वदतु तर्हि एतस्य वाक्यस्य
पुस्तके नीलरूपः अस्ति चेत् समवायसम्बन्धेन भवति तदा नीलरूपः यदा नास्ति पुस्तके चेत् तत्र अपि समवायसम्बन्धेन नास्ति इत्यर्थः परन्तु यदा अभावः इति वयम् उपयोगं कुर्मः चेत् तत्र सम्बन्धः भिन्नः भवति
यत्र साक्षात् पदार्थः अस्ति तत्र नीलरूप पुस्तके नास्ति तत्र पदार्थः नीलरूपः नीलरूपमेव नीलरूपं पुस्तके नास्ति इति यदि वदामः तत्र समयसम्बन्धेन नास्ति इति किन्तु पदार्थस्य अभावः इति अस्ति इति यदि वक्तुम् इच्छामः नाम पदार्थः नास्ति इति व्यवहारे सम्बन्धः संयोगः वा समवायः भवितुम् अर्हति किन्तु पदार्थस्य अभावः अस्ति इति यदि वक्तुम् इच्छामः तत्र भिन्नसम्बन्धः समीचीनम् अस्तु अग्रे
निष्कर्षत्वेन यदा ग्रन्थकारः लिखति यत् सर्वेपि पदार्थाः स्वस्मिन् तारात्म्यसम्बन्धेन भवति तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्य अभावः
एतत् ग्रन्थकारः लिखितवान् नाम तत्र सर्वेपि पदार्थाः स्वस्मिन् तारात्म्यसम्बन्धेन भवति पठन पठे तादात्म्यसम्बन्धेन भवति इदानीं तेन सम्बन्धेन नास्ति इति अभावः एव अन्योन्य अभावः एतस्य वाक्यस्य अर्थः कः इति एव अस्माभिः चिन्तनीयः विषयः अस्तु अतः तत्र केवलं तत्र ग्रन्थकारः लिखितवान् एतत् तस्य अर्थः कः इति अग्रे पठतु भगिनि किञ्चित् अत्र
सर्वेपि पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति उक्ते घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन
एतत् अवगच्छामः खलु तत्र
तादात्म्यसम्बन्धेन भवति तदा तेन सम्बन्धेन नास्ति इति उक्ते घटः पटः न तादात्म्यसम्बन्धेन न तु घटस्य अन्योन्य अभावः पटे अस्ति तादात्म्यसम्बन्धेन
तर्हि तत्र अस्य एव वाक्यस्य अर्थः एतदेव प्रमुखं वाक्यम् अस्ति तत्र तत्र एतावत्
घटः पटः न इति सन्दर्भे वयं वदामः तादात्म्यसम्बन्धेन इति तत्र घटः घटे तादात्म्यसम्बन्धेन भवति पटः पटे तादात्म्यसम्बन्धेन भवति परन्तु घटस्य अन्योन्य अभावः पटे तादात्म्यसम्बन्धेन भवति
श्रुतं वा तत्र इति तत्र तदा तेन सम्बन्धेन नास्ति इत्युक्ते घटः पटः न तादात्म्यसम्बन्धेन न तु घटस्य अन्योन्याभावः पटे अस्ति तादात्म्यसम्बन्धेन नाम अत्र किमस्ति तत्र घटः पटः न इति अन्योन्याभावः इत्युक्ते घटः पटः न तादात्म्यसम्बन्धेन इति एव सत्यम् एतत् किम् इति अवगच्छामः एकनिमेषः घटः पटः न इति तत्तु तत्र अन्योन्यभावः इति अवगच्छामः एतत् सत्यमस्ति किन्तु एतस्य वाक्यस्य अर्थः एतत् नास्ति नाम घटस्य अन्योन्यभावः पटे तादात्म्यसम्बन्धेन भवति इति न नाम अस्य वाक्यस्य अर्थः अन्योन्याभावः तादात्म्यसम्बन्धेन पटे अस्ति इति अर्थः नास्ति नाम यत् चित्रं वयं पूर्वं दृष्टितवन्तः तत्र अन्योन्याभावः अस्ति चेत् तत्र तादात्म्यसम्बन्धः स्वरूप अत्यन्तः भावः अस्ति चेत् स्वरूपसम्बन्धः इति एतादृशं चित्रं भवति वा इति नो न न न तादृशं न भवति अत्र तादात्म्यसम्बन्धः नास्ति इति तत्र स्वरूपमहोदयेन उक्तम् अतः तत्र तेन सम्बन्धेन नास्ति इत्युक्ते घटः पटः न इति तादात्म्यसम्बन्धेन तत्तु सत्यं न तु घटस्य अन्योन्याभावः पटे अस्ति तादात्म्यसम्बन्धेन तत्र अत्र भेदः तत्र किमर्थम् अस्ति नास्ति अभावः इति स्वीकृतं यदा तत्र शुभदाभगिनी तत्र नास्ति इत्युक्ते अभावः सत्यं किन्तु अस्मिन् वाक्ये नास्ति अपि अभावः तद्वयमपि अस्ति अतः तत्र कः भेदः सम्यक् रीत्या अस्य वाक्यस्य अर्थः अस्माभिः अवगन्तव्यः तत्र अतः तत्र अर्थः कः इति प्रश्नः अतः तत्र घटस्य अन्योन्याभावः पटे तादात्म्यसम्बन्धेन नास्ति हा इति तु सत्यं हा इति स्वरूपमहोदय वदति अत्र हा अग्रे पठति वा
अनेन उपवाक्येन भ्रमः भवति दृशभ्रमः यत् येन सम्बन्धे वस्तु अधिकरणे नास्ति तेन एव सम्बन्धेन तस्य अभावः तस्मिन् अधिकरणे अस्ति इति नितरां दोषाय एक संशयः अस्ति अत्र उदाहरणार्थं घटः भूतले अस्ति इति चेत् संयोगसम्बन्धेन इति वदामः सो अधिकरणम् अत्र भूतलं सो सम्बन्धे नास्ति इति चेत् तत्र वयं वदामः संयोगसम्बन्धेन एव किल
सत्यं
परन्तु अभावः चेत् तेनैव सम्बन्धेन न भवति इत्यर्थः
खलु किन्तु अत्र किन्तु एतादृशभ्रमः अस्मिन् अस्य वाक्यस्य पठनेन भवितुम् अर्हति अतः न भवेत् इति सः वक्तुम् इच्छति अतः तत्र अतः तत्र अग्रे इतोपि स्पष्टं भवति इति मन्ये अस्तु तर्हि तत्र अग्रे धनश्री भगिनी पठितु अस्तु तत्र नरसिंहमहोदय अग्रे पठितुम् इच्छति वा
महोदय अतः खलु 31 इति पृष्ठसङ्ख्यायां लिखितमस्ति सर्वे अपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति अत्र अन्योन्याभावः इति न उक्तं घटो नास्ति इत्येव उक्तम्
अत्र सावधानं कुत्र अत्र सावधानं घटो नास्ति इति अभावः तत्र तेन सम्बन्धिन घटः नास्ति, तत्र तादात्म्यसम्बन्धिन घटः पटे नास्ति इति, तत्र तादृश अभावः तत्र नास्ति इति यदि वदामः तत्र तादृश अभावः भवति तत्र अन्योन्य अभावः तत्र महोदय तत्र सर्वेपि पदार्थाः उक्तसम्बन्धेन स्वस्मिन् भवति, उक्तसम्बन्धः कः?
उक्तसम्बन्धः तत्र तादात्म्यसम्बन्ध एव
तादात्म्यसम्बन्ध तेन सम्बन्धेन घटः नास्ति नाम तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः
अन्योन्यभावः
अन्योन्यभावः स च अभावः कुत्र वर्तते? पटे वर्तते वा अभावः अभावः अन्योन्यभावः नाम
अन्योन्यभावः स्वस्मिन् स्वस्मिन्नेव वर्तते
न तादृशसम्बन्धः भिन्नः
घटस्य अभावः पटे घटस्य अभावः पटे वर्तते पटस्य अभावः घटे
घटस्य अन्योन्यभावः पटे वर्तते यतोहि पटः घटः न भूतले वर्तते वा भूतले अपि वर्तते यतोहि घटः भूतलं भूतलं घटः न खलु
आम् आम्
अन्योन्यभावः कुत्र वर्तते?
घटं विहाय सर्वत्र वर्तते
हा घटं विहाय जगति सर्वत्र भवति हा अत्र अन्योन्यभावः इति तत्र घटो नास्ति इति उक्तं नाम घटः तादात्म्यसम्बन्धेन नास्ति इति एव उक्तं किन्तु अन्योन्याभावः तादात्म्यसम्बन्धेन अस्ति इति न उक्तं खलु अत्र अस्मिन् भागे महोदय तत्र स्पष्टमस्ति वा अत्र तेन सम्बन्धेन घटः नास्ति इति उक्तं खलु
आमाम् महोदय
किन्तु अभावः अभावः तत्र तेन सम्बन्धेन अस्ति इति उक्तं वा अस्मिन् वाक्ये तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इति यदि वाक्यं पठामः तत्र भ्रमः भवति तेन सम्बन्धेन घटः नास्ति इति एकं वाक्यं वा अथवा घटः नास्ति इति अभावः सर्वत्र भवति केन सम्बन्धेन भवति तेन सम्बन्धेन भवति इति चिन्तनं वा भ्रमः कः इति अवगच्छति वा महोदय घटः नास्ति तादात्म्यसम्बन्धेन घटः नास्ति इति एकः भागः वा अथवा घटः नास्ति इति अभावः स च अभावः जगति सर्वत्र भवति केन सम्बन्धेन भवति तादात्म्यसम्बन्धेन भवति इति अतः तत्र विकल्पद्वयमस्ति खलु तादात्म्यसम्बन्धेन घटः नास्ति इति एकम् अथवा घटस्य अन्योन्यभावः जगति सर्वत्र तादात्म्यसम्बन्धेन भवति इति द्वितीय अर्थः किन्तु अत्र किम् उक्तम् अन्योन्यभावः इति न उक्तं घटः नास्ति इति एव उक्तं नाम घटः तादात्म्यसम्बन्धेन नास्ति इति एव उक्तं घटस्य अभावः तादात्म्यसम्बन्धेन भवति इति न उक्तम् अस्तु अग्रे पठतु महोदय
यः कोऽपि अभावः भवतु नाम स च अभावः स्वस्य अधिकरणे तिष्ठति स्वरूपसम्बन्धेन अत्यन्त अभावः भवतु अन्योन्यभावः भवतु स्वरूपसम्बन्धेन एव तिष्ठति अधिकरण अभावमध्ये अधिकरण अभावमध्ये तत्र सम्बन्धः कीदृशः इत्युक्ते अभावः अधिकरणे एव तिष्ठति इति
अधिकरणे सर्वदा स्वरूपसम्बन्धेन एव तिष्ठति हा नाम यदि वयं वदामः तत्र घटः तत्र भूतलं घटः न अथवा भूतलं भूतले घटः नास्ति
सम्बन्धं किमपि भवतु अत्य अन्येन अभावः किमपि भवतु, चिन्ता भवतु, अन्येन भवतु, स्वरूपसम्बन्धेन एव तत्र अधिकरणे तिष्ठ.
अभावः स्वरूपसम्बन्धेन एव तिष्ठति. हा, तत्र यथा पूर्वं पूर्वस्मिन् पुटे एतद् लिखितमस्ति, तत्र अभावः भूतले स्वरूपसम्बन्धेन भवति इति. तत्र पूर्वस्मिन् पुटे लिखितमस्ति, अभावः भूतले स्वरूपसम्बन्धेन भवति इति एव उक्तम्. अतः तत्र स्वरूपसम्बन्धेन एव तत्र यद् अन्योन्यभावः वा अत्यन्त अभावः वा सर्वदा स्वरूपसम्बन्धेन एव तिष्ठति, न तु तादात्म्यसम्बन्धेन. तत्र अन्योन्याभावः तादात्म्यसम्बन्धेन तिष्ठति इति न अवगन्तव्यः, किन्तु सर्वदा सम्बन्धः तु अभावस्य सम्बन्धः आश्रये, अभावः आश्रये सर्वदा स्वरूपसम्बन्धेन एव तिष्ठति, न कदापि तादात्म्यसम्बन्धेन.
यदि नास्ति इति वदामः चेत् संयोगसम्बन्धेन नास्ति इति वदामः, यदि अभावः इति वदामः चेत् स्वरूपसम्बन्धेन अभावः.
अत्र विकल्पः एव नास्ति, तत्र संयोगः समवायः अन्यत् कोऽपि सम्बन्धः न भवेत्, केवलं
स्वरूपसम्बन्ध
अभावः अस्ति इति यदि कोऽपि वदति वयं जानीमः, अस्तु सम्बन्धः तु स्वरूपसम्बन्धः एव, अन्य कोऽपि विकल्पः तत्र नास्ति, विकल्पः तत्र नास्ति एव इति. अस्तु, समीचीनं,
धन्यवादः.
हा, प्रश्नः अस्ति वा अस्मिन् विषये? अतः तत्र उत्तरमस्ति, नाम तत्र यत्किमपि भवतु तत्र पूर्वं गत्वा तत्र ज्ञानस्तरे तादात्म्यसम्बन्धः वर्तते इति तत्तु सत्यं नास्ति. ज्ञानस्थले स्वरूपसम्बन्धः इति तु एतत् अत्यन्ताभावस्थले अपि स्वरूपसम्बन्धः, भूतलं घट अन्योन्याभावत् इति ज्ञानस्थले अपि स्वरूपसम्बन्धः एव भवति इति. अस्तु, एतावत् समीचीनं वा? तत्र अन्यः विषयः अस्ति, किन्तु तद् अग्रिमे सप्ताहे पठामः. इदानीं किञ्चित् अग्रे सरामः तर्हि. तर्हि तत्र अग्रे, हा, अस्तु, प्रश्न एतावत् यत् पठितवन्तः तस्मिन् विषये प्रश्नः अस्ति वा? नो चेत् अग्रे सरामः. अस्तु, तर्हि तत्र नीता भगिनी अग्रे पठितुम् इच्छति वा?
आम् आचार्य.
प्रतिनियतग्राह्याः गुणाः इति.
प्रतिनियतग्राह्याः गुणाः रूपं, रसः, गन्धः, स्पर्शः, शब्दश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकं वक्षमाणप्रत्यक्षात्मकज्ञानजनकम्. अन्येपि सुखदुःखादयः ये आत्मविशेषगुणाः, पृष्ठक्रमाङ्क 5270, तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते.
एतावत् किञ्चित् वदतु भगिनि. रूपं, रसः, गन्धः, तत्र इति
रूपं, रसः, गन्धः, स्पर्शः, शब्दः चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवहारः अस्ति. व्यवहाररूपेण रूपं, रसः, गन्धः, स्पर्शः, शब्दः इति गुणाः प्रतिनियतग्राह्याः गुणाः इति दत्तमस्ति. किमर्थम् इति
तत्र इदानीं तत्र तत्र किमर्थं वयं रूपं, रसः, गन्धः, स्पर्शः, शब्दः इति सः एषः विषयः किमर्थम् आगतः? एतावत् वयं किं कृतवन्तः? अस्माकं पूर्वविषयः कः आसीत्?
अस्माकं पूर्वः विषय लक्षणवाक्यस्य विषये गन्धवती पृथ्वी
किन्तु पुस्तके तत्र हा पुस्तके तत्र तत्र अवच्छेदकता एतत् सर्वं वयं उक्तवन्तः किमर्थं तत्र शब्दगुणकम् आकाशम् इति लक्षणवाक्यमासीत् खलु हा तत्र शब्दगुणकं किमर्थं गुणपदम् आगतम् इति वयं चिन्तितवन्तः किमर्थं तत्र शब्दवान् आकाशः तत्र शब्दवत् आकाशम् इति तादृशं नासीत् किन्तु शब्दगुणकम् आकाशं किमर्थम् आसीत् इति वयं चिन्तितवन्तः गुणपदं तत्र तेन वयं तत्र उक्तमासीत् तत्र गुणपदेन आधाराधेयभावः स्पष्टतया उक्तम् अस्ति लक्षणं शब्दः इति लक्षणं लक्ष्ये आकाशे अस्ति इति वयं सर्वदा एतत् एव भवति खलु तत्र लक्षणवाक्यं तादृशं भवेत् येन वयम् अवगच्छामः लक्षणं लक्ष्ये अस्ति शब्दः गुण शब्द आकाशस्य गुणः इति यदि वदामः तदा आधारादयभावः स्पष्टः भवति वा शब्दः यदि यदि आकाशस्य गुणः इति वदामः तर्हि तत्र गुणः आदेयः आकाशः अधिकरणमिति भवति अवगच्छामः खलु तर्हि शब्दगुणकम् आकाशं नाम शब्दः आकाशस्य गुणम् गुणः इति यदि वदामः तर्हि शब्दः लक्षणम् आकाशे लक्ष्ये अस्ति इति वयं स्पष्टतया अवगच्छामः अतः पूर्वविषय आसीत् आकाशं तस्मात् प्राक् आसीत् तत्र जलः तेजः वायुः एतत् सर्वं तदनन्तरम् आकाशम् इदानीं तत्र अस्ति तत्र रूपं रसः गन्धः स्पर्शः किमर्थम् अस्माकं क्रमः कः तत्र पदार्थेषु क्रमः कः प्रथमपदार्थः अस्ति तत्र द्रव्यं द्रव्यमासीत् खलु
हा प्रथमपदार्थः द्रव्यमासीत्
द्रव्यं तत्र
क्रमेण
पृथ्वी सर्वं तदनन्तरं तत्र आत्मा मनः एतत् आसीत् खलु तदनन्तरं गुणः गुणः आसीत् अतः तत्र किं कृतवन्तः तत्र पञ्च द्रव्याणां लक्षणं कृतं खलु पृथ्वी तेजः
पृथ्वी जलं तेजः वायुः अनन्तरम् आकाशः
इदानीं तेषु यः गुणः वर्तते तस्य विवरणम् अत्र दत्तमस्ति तावदेव रसः गन्धः स्पर्शः शब्दः इति गुणाः सन्ति प्रतिनियतग्राह्यः इति शास्त्रे व्यवह्रियन्ते प्रतिनियतग्राह्यः इत्युक्ते किमिति अग्रिमवाक्ये पुनः एकवारं पठतु
तेषाम् एकैकस्य एकैकम् एव इन्द्रियं ग्राहकं वक्षमाण
इत्युक्ते किं तत्र
इत्युक्ते यदि पृथिव्यां गन्धः अस्ति गन्धे गन्धः पृथिव्याम् अस्ति गुणः गन्धः इति गुणः पृथिव्याम् अस्ति यदि
तद्भिन्नं किन्तु ग्राहकं ग्राहकं नाम तत्र तत्र रूपम् इति चिन्तयामः रूपं रूपं नीलरूपस्य नीलरूपम् इति पुस्तकं नीलरूपपुस्तकम् अस्ति नीलरूपपुस्तकम् अस्ति इति ज्ञानम् अस्माकम् अस्ति केन केन इन्द्रियेण एतत् ज्ञानं प्राप्तम् तत्र चक्षुषा खलु
चक्षुषा
नीलरूपं पुस्तकमिति वयम् अस्माकं ज्ञानं प्राप्तं तत्र अन्यत् तत्र अन्ये इन्द्रियाः तत्र रसनेन्द्रियेण तत्र रसनेन्द्रियेण तत्र नीलपुस्तकं नीलरूपम् इति ज्ञानं भवति वा
न
घ्राणीन्द्रियेण भवति वा?
न न चक्षुषा एव.
त्वचा भवति वा?
न.
श्रोत्रेन्द्रियेण?
न.
अतः तत्र केवलं चक्षुषा एव भवति, नाम रूपस्य ग्रहणम् एकमेव इन्द्रियेण, एकेन इन्द्रियेण भवति रूपस्य ज्ञानरूपं विषयः, तस्य ज्ञानं तत्र ज्ञानम् एकेन इन्द्रियेण भवति. अतः एकैकमेव इन्द्रियं ग्राहकम्, रसः इति गुणस्य ग्राहकं भवति रसेन्द्रियेण एव, रसनेन्द्रियेण एव,
रसनेन्द्रियेण, गन्धस्य घ्राणेन्द्रियेण, स्पर्शस्य त्वचाविषये इन्द्रियेण,
शब्दः श्रोत्रेन्द्रियेण एव, तस्य
श्रोत्रेन्द्रियेण एव.
अतः तत्र एकैकस्य एकैकमेव इन्द्रियं ग्राहकम् इति
ग्राहकम्
यदस्ति तदेव अर्थः प्रतिनियतग्राह्याः इति. प्रतिनियतग्राह्याः नाम तत्र एकैकस्य एकैकमेव इन्द्रियं ग्राहकम् इति अत्र
वक्षमाण प्रत्यक्षात्मकज्ञानजनकं. वक्षमाण इत्युक्ते वक्तुं यत् कोऽपि ज्ञानं वयं स्वीकुर्मः, यस्य आकलनं भवति अस्माभिः, तस्य वक्षमाणरूपं वा प्रत्यक्षज्ञानं.
प्रत्यक्षज्ञानम् इति किम् इति अग्रे तत्र पश्यामः. तस्य तादृशप्रत्यक्षात्मक प्रत्यक्षज्ञानं, ज्ञानमिति वयं जानीमः, तत्र गन्धस्य ज्ञानं, रसस्य ज्ञानं तत् जानीमः, किन्तु अग्रे गत्वा वयं प्रत्यक्षज्ञानस्य तत्र चतुर्विध ज्ञानं भवति इति, तत्र प्रत्यक्षम्, अनुमानं, शाब्दबोधः इति, तत्र चतुर्विध ज्ञानं भवति. किन्तु अग्रे गत्वा तत् कुर्मः, इदानीं ज्ञानम् इति एव वयम् अवगच्छामः. अतः वक्ष्यमाणप्रत्यक्षात्मकज्ञानस्य जनकम् अस्ति, नाम एकैकेन इन्द्रियेण ज्ञानस्य जननं भवति, नाम श्रोत्रेन्द्रियं शब्दस्य ज्ञानं जनयति.
श्रोत्रेन्द्रियं शब्दस्य ज्ञानं, त्वक् स्पर्शस्य ज्ञानं, घ्राणेन्द्रियेण गन्धस्य ज्ञानं, रसनेन रसस्य, चक्षुषा रूपम्.
एकम् इन्द्रियम् एकस्य गुणस्य ग्राहकं भवति, तस्य ज्ञानस्य जनकं भवति. अग्रे
अत्र एकस्य एव ज्ञानम्, एकस्य विषयस्य एवं ज्ञानग्रहणं भवति इति तेन इन्द्रियेण.
हा, तत्र रूपं केवलं तत्र चक्षुषा एव, तस्य ग्रहणं भवति चक्षुषा एव, रूपस्य ग्रहणं भवति, रसस्य ग्रहणं केवलं तत्र रसनेन्द्रियेण,
रसनेन एव भवति.
अस्तु अग्रे.
अन्येपि सुखदुःखादयः ये आत्मविशेषगुणाः, तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते इति अस्ति. प्रत्यक्षजनकत्वेन मनः इति दत्तमस्ति.
कति गुणाः सन्ति तत्र? पञ्चगुणाः एव सन्ति वा अथवा
षड्? ज्ञानात्मकगुणः इन्द्रियेण तु पञ्च, किन्तु षट् ज्ञानेन्द्रिय इति मनः विषये दत्तमस्ति.
न किन्तु केवलं तत्र केन ग्रहणमिति मास्तु, केवलं कति तत्र वयं जानीमः, तत्र कति द्रव्याणि सन्ति?
द्रव्याणि
पुस्तकस्य आदौ तत्र प्रथमपुटे एव लिखितमस्ति, तत्र कति द्रव्याणि सन्ति?
नव नवद्रव्याणि तथैव गुण तथैव नवगुणः
न न न नवगुणः इति नास्ति तत्र कति गुणाः सन्ति कोऽपि वदति वा चतुर्विंशतिगुणाः सन्ति इति तत्र आदौ चतुर्विंशतिगुणाः सन्ति किन्तु रूपं रसगन्धः स्पर्शः शब्दः तदनन्तरं तत्र सुखदुःख एतत् सर्वं भवति अतः तत्र इदानीं केवलं पञ्चगुणः एव स्वीकृतः तत्र यदि सुखदुःखादयः तत्र किं भवति ते तु तत्र सुखदुःखः इति तत्र ज्ञानेन्द्रियेण तस्य ग्रहणं न भवति तत्र क्षम्यतां तत्र चक्षुषा रसनेन्द्रियेण तत्र सुखदुःखस्य ग्रहणं भवति वा न भवति अतः तत्र सुखदुःखादयः आत्मविशेषगुणाः सन्ति नाम तत्र आत्मा इति यः पदार्थः अस्ति तस्य गुणः सुखः सुख दुःख एतादयः भवन्ति तेषां प्रत्यक्षजनकत्वेन तेषां प्रत्यक्षज्ञानं कथं भवति इति प्रश्ने सति मनः अस्ति इति मनः इति पदार्थः अस्ति इति अपि अस्माभिः अनुमीयते वयं तत्र स्वीकरणीयमस्ति अस्माभिः तत्र मनः इति कोऽपि पदार्थः अस्ति यतोहि मनसा तत्र सुखदुःखस्य प्रत्यक्षज्ञानम् अस्माभिः भवति तत्तु चक्षुषा न भवति रसनेन्द्रियेण न भवति किन्तु मनसा तस्य प्रत्यक्षज्ञानं भवति इति कृत्वा सः पदार्थः अस्ति इति अस्माभिः स्वीकर्तव्यः भवति इति अग्रे तत्र पश्यामः अतः तत्र
अतः मनः विषये दत्तमस्ति मनः अतिरिक्तम् इन्द्रियम् इति
अतिरिक्तं नाम मनः चक्षुः नास्ति खलु रसनं भिन्नम् अस्ति मनः भिन्नम् अस्ति खलु अतिरिक्तम् इन्द्रियम् अतिरिक्तं तत्र अभ्यन्तरम् इन्द्रियमपि इति तत्र व्यवहारम् अस्ति नाम तत्र बहिर्चक्षुः रसनं घ्राणं त्वक् श्रोत्रं तत्र बहिरिन्द्रियाणि इति अपि व्यवहारः भवति मनः इति तत्र अभ्यन्तरेन्द्रियम् इति अपि तत्र व्यवहारः भवति अस्तु समीचीनं भगिनी धन्यवादः
धन्यवादः
अस्तु अग्रे तत्र शोभा भगिनी अग्रे पठति वा
आं महोदय प्रतिनियता ग्राह्याः गुणाः तद् ग्राहकाणि इन्द्रियाणि इति दत्वा तत्र प्रतिनियतग्राह्याः गुणाः इति स्तम्भे रूपम् अपि च तद् ग्राहकाणि इन्द्रियाणि इत्यत्र चक्षुः इति तथा एव रसः रसनं गन्धः घ्राणं
रूपं चक्षुषा
रूपं चक्षुषा ग्राह्यते रूपं चक्षुषा ग्राह्यते रसः रसनया ग्राह्यते
रसनेन्द्रियेण
रसनेन्द्रियेण गन्धः घ्राणेन्द्रियेण स्पर्शः त्वक् इन्द्रियेण शब्दः श्रोत्रेन्द्रियेण अपि च तत्र षट् ज्ञानात्
ज्ञानादि आत्मगुणाः
ज्ञानादि आत्मगुणाः षट् ज्ञानादि आत्मगुणाः मनः इति
मनसा अथवा मनसेन्द्रियेण
तत्र मनसेन्द्रियेण षट् ज्ञानादि आत्मगुणाः ग्राह्यन्ते इति
भवति समीचीनं अस्तु अग्रे
तथा च पूर्वोक्तगुणानां ग्राहकाणि क्रमेण चक्षुः रसन घ्राणत्व तत्र घ्राणत्व क्षमतां चक्षुः रसनघ्राणत्वक् श्रोत्राणि इति मनश्च षष्ठम् इति आहत्य षट् इन्द्रियाणि तत्र तथा च पूर्वोक्त गुणानाम्
अग्रिम वाक्यद्वयमपि पठित्वा
अस्तु महोदय. आदिमानि पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीन् प्रकाशयन्ति. आभ्यन्तरं भवति मनः मनः आत्मानं तत् तद्गतगुणान् च प्रकाशयति. तत्र पूर्वोक्तगुणानां तत्र ग्राहकाणि क्रमेण ग्राह्यन्ते इति इत्युक्ते तत्र प्रत्येकं गुणस्य कृते इन्द्रियस्य साम्यम् अस्ति
तत्र
ग्राहकम् इति तत्र चक्षुः रसन घ्राण त्वक् श्रोत्राणि इति ते सर्वे प्रत्येकम् एकमेव गुणं ग्राह्यन्ते आहत्य
गृह्णाति. दक्षिणस्तम्भे गुणाः सन्ति क्षम्यतां तत्र वामस्तम्भे तत्र गुणाः सन्ति दक्षिणस्तम्भे गुणस्य ग्राहक
इन्द्रियाणि
दत्तानि सन्ति. अस्तु समीचीनं.
अपि तर्हि ते सर्वे
षष्ठम् इति आहत्य षड् इन्द्रियाणि सन्ति नाम खलु चक्षुरसवक् श्रोत्रम् इति पञ्च तदनन्तरं मनः इति कृत्वा षड् इन्द्रियाणि सन्ति.
तेषां सह मनः इति अपि तत्र उक्त्वा षष्ठम् इति आहत्य षड् इन्द्रियाणि निरूपितानि.
षड् इन्द्रियाणि सन्ति तत्र
सन्ति. आदिमानि पञ्च बहिरिन्द्रियाणि आदौ पञ्च बहिरिन्द्रियाणि बहिर्भूतान् घटादीनान् प्रकाशयन्ति. इत्युक्ते तत्र चक्षुः रसनं घ्राणं त्वक् श्रोत्रम् इति बहिरिन्द्रियाणि ते सर्वे अतः तत्र बहिर्भूतान् वस्तूनामेव प्रकाशं कुर्वन्ति.
नाम घटः अस्ति
घटः वा पटः वा किमपि पदार्थः अस्ति चेत् द्रव्यम् अस्ति चेत् तम् अथवा तान् प्रकाशयन्ति सर्वे बहिरिन्द्रियाणि
बहिर्लोके.
यतोहि इन्द्रियाणि अपि बहिरेव सन्ति शरीरे
नाम तत्र
बहिर्गच्छन्ति अपि च
तत्र नामकरणं किमर्थं बहिरिन्द्रियम् इति कृतम् इत्युक्ते बहिर्भूतान् घटाधीन् प्रकाशयन्ति ते
प्रकाशयन्ति इत्युक्ते तत्र तेषु अथवा तेषु बहिर्भूतानि पदार्थानि प्रकाशयन्ते अथवा ते प्रकाशयन्ति
प्रकाशयन्ति. किमस्ति इति तेषां ज्ञानम् अस्माभिः बहिरिन्द्रियेण अथवा बहिरिन्द्रियैः तस्य ज्ञानं
बहिर्लोकस्य
ज्ञानं भवति
तैः बहिर्लोकस्य ज्ञानं भवति
किन्तु
तैः इन्द्रियैः किन्तु आभ्यन्तरं भवति मनः आत्मानं तद्गतगुणान्
तत्र आभ्यन्तरम् इन्द्रियं तत्र बहिरिन्द्रियं पञ्च बहिरिन्द्रियं
अन्तः इति मनः इति अन्तः आभ्यन्तरं भवति मनः आत्मानं तद्गतगुणान् च प्रकाशयति. यतोहि मनः तु आभ्यन्तरम् इत्युक्ते बहिः नास्ति
आभ्यन्तरं नाम बहिरिन्द्रियं नास्ति मनः नास्ति मनः किं प्रकाशयति
तत्र आत्मानं
एकवारं पठतु तदेव वाक्यम्
आभ्यन्तरं भवति मनः आत्मानं तद्गुणान् तद्गतगुणान् च प्रकाशयति आत्मानम् अपि च तद्गतगुणान्
तत्र तद् इत्युक्ते किम्
तद्गतगुणान् इति उक्तत्वा तत्र आत्मानमेव आत्मा एव
आत्मा आत्मनि यः तत्र यः गुणः वर्तते अथवा ये गुणाः सन्ति तान् गुणान्
प्रकाशयति
आत्मानं प्रकाशयति अपि तद्गतगुणान् अपि प्रकाशयति अतः तत्र मनः मनसा अस्माकं तत्र ज्ञानं भवति तत्र सुखदुःखस्य तत्र षड्विधज्ञानादि आत्मगुणाः ये सन्ति तेषां ज्ञानं प्रत्यक्षज्ञानम् अस्माकं यद्भवति मनसा एव भवति मनः तान् गुणान् प्रकाशयति नाम ता तत्र गुणानां ज्ञानं तत्र गुणान् गृह्णाति तस्य ज्ञानम् अस्माकं जनयति
यत्किमपि तत्र इत्युक्ते तत्र अनुभवः भवति चेत् मनः मनसा एव
किं भगिनि
तत्र सुख सुखं दुःखम् इति अनुभवः केऽपि अनुभवः भवति चेत् मनसा एव
ते मनसा एव तत्र ग्राह्यन्ते तान् गुणान् प्रकाशयति अथवा गृह्णाति आत्मगुणान् गृह्णाति मनः इति अतः तत्र पञ्चगुणाः तत्र रूपं रसगन्धः स्पर्शः शब्दः तेषां ग्रहणं तत्र बहिरिन्द्रियैः भवति तदनन्तरं तत्र आत्मनि ये गुणाः सन्ति षड्गुणाः तेषां ग्रहणं मनसा भवति इति समीचीनं अस्तु प्रश्नः अस्ति वा एतावत्
आचार्य एकः प्रश्नः तर्हि सुख दुःख द्वेष प्रयत्न धर्माधर्म संस्कारः इति वा सर्वे
सत्यं भगिनि
आत्मना ग्राह्यन्ते
न न आत्मन् आत्मनः गुणाः सन्ति एते तेषां ग्रहणं मनसा भवति
मनसा ग्राह्यते
इति समीचीनं वा
आम् आम् इतोपि एकः प्रश्नः तत्र द्रव्ये तु पृथ्व्याप् तेजो वायवाकाशकालदिगात्ममनांसि नवैव अत्र गुणानां यत् क्रमः अस्ति खलु रूप रस गन्धस्पर्श ते मिश्रितम् अस्ति वा यथा द्रव्याणां क्रमः अस्ति तथैव अस्य क्रमः नास्ति वा
न तथैव क्रमः नास्ति तथैव क्रमः नास्ति
गन्ध तु पृथिव्याः लक्षणं खलु
सत्यं सत्यं तत्र क्रमः भिन्नः अस्ति सत्यं
मम मनसि चिन्तनम् आसीत् रूपमपि पृथिव्या ग्रह्यते वा रसः इति सर्वं
पृथिव्या
रूपं न पृथिव्यां रूपमपि अस्ति पृथिव्यां रूपमस्ति रसः अपि अस्ति गन्धः अपि अस्ति स्पर्शः अस्ति इति मम मनसि चिन्तनम् आगतम् कस्यापि गृहतः ध्वनिः अस्ति
तत्र क्रमः कः इति अग्रे पश्यामः भगिनि
आम् तर्हि एकः प्रश्नः अस्ति रूपम् इति पृथिव्याः लक्षणम् अस्ति वा इति प्रश्नः
रूपम् इति पृथिव्याः लक्षणम् इति कथं
न वा
कथं गन्धः एव पृथिव्याः लक्षणं खलु यत्र यत्र गन्धः तत्र तत्र एव पृथ्वीत्वं खलु
अहं चिन्तितवती रूपं तु पृथिव्यां दृश्यते इति अतः मम मनसि
तत्र अग्रे पश्यामः तत्र रूपरसः इति तेषां तत्र लक्षणम् इदानीम् अग्रे भविष्यति भगिनि तत्र अतः अग्रे एव तस्य विवरणं दत्तमस्ति
अस्तु अस्तु
अस्तु अन्य कोऽपि प्रश्नः अस्तु तर्हि अग्रे सरामः तत्र विमला भगिनी पठितुम् इच्छति वा?
आचार्य अत्र अहम् एकं वदामि वा?
वदतु महोदय, वदतु.
वस्तु उदाहरणं करणीफलं गृहीत्वा पश्यामि चेत् रूपं चक्षु चक्षुन्द्रियेण ग्राह्यं, रसं तत् रसनेन्द्रियेण तत् मुखं मुखं अथवा रस तस्य रस भावं भवति रसेन्द्रियेण तत्र तस्य रुचि ज्ञातुं गन्धः अपि प्रत्येकफलं अन्य अन्य भिन्नभिन्न रूपरस गन्ध वर्तते.
उदाहरणम् उत्तमम् अस्ति, उदाहरणम् उत्तममस्ति महोदय. नाम फलम् इति यदि फलं
एकं तत्र तन्त्रफलमस्ति, कदलीफलमस्ति, किमस्ति आम्रफलमस्ति चेत् तद् रूपं तत् तस्य रस रसं तस्य गन्ध तस्य स्पर्श इत्यादि सर्वे फलम् अस्ति चेत् अन्यम् अन्यं या भिन्नं भिन्नं भवति.
समीचीनं महोदय.
तत् ज्ञानं समीकृत्य इति दिस् इस् करणीफलं, दिस् इस् आम्रफलम् इत्यादि डिसिशन्स् ज्ञानेन अन्तर्ज्ञानेन्द्रिय इन्द्रियं ज्ञानेन्द्र आत्मगुणः कारणेन सम्पूर्णज्ञानं ग्रहणं सम्भवं भवति.
समीचीनम्. अस्तु, उत्तमम् उत्तमम् उदाहरणम् उत्तममस्ति. नाम यदि फलम् आम्रफलम् इति किमपि अस्ति चेत् तत्र फलस्य तत्र वयं कीदृशं फलम् इति तत्र एकमेकं दृष्ट्वा तत्र रसन् रूपं दृष्ट्वा रसं रूपस्य ग्रहणं चक्षुषा भवति, रसन् रसस्य ग्रहणं रसनेन्द्रियेण भवति, गन्धस्य ग्रहणं घ्राणेन्द्रियेण इति सर्वं भवति. अतः तत्र फलस्य खादनसमये तत्र वयं सर्वे तत्र सर्वे गुणाः सन्ति, गुणानां ग्राहकाः ग्राहकाणि इन्द्रियाणि अपि तत्र तेषां प्रयोगमपि प्रयोगः अपि भवति अपि तत्र तया तत्र एतेन वयं तत्र मनसा तत्र अस्माकं तत्र आत्मगुणः तत्र सुखम् इति अपि भवति. अतः तत्र सर्वं तत्र फलस्य खादनम् इति उत्तमम् उदाहरणम् अस्ति महोदय. अपि तत्र भिन्नफलम् अस्ति, एतत् आम्रफलं नास्ति इति एतत् सर्वमपि ज्ञानं तत्र भवति इति. समीचीनम् उदाहरणं महोदय. हा अस्तु, तर्हि तत्र समयः अपि जातः. तत्र इदानीं तत्र गुणस्य लक्षणं क्रमेण तत्र गुणस्य लक्षणं किम् इति वक्तुं तत्र वक्तुम् इच्छामः. अतः तत्र पूर्वं तत्र पृथिव्याः लक्षणं, जलस्य लक्षणम्, आकाशस्य लक्षणं सर्वं दृष्टवन्तः. इदानीं रूपस्य लक्षणं किं, रसस्य लक्षणं किम् इति अग्रे पश्यामः. तर्हि अस्तु, अतः तत्र अत्रैव विरमामाद्य अग्रिमसप्ताहे अग्रे गच्छामः. इदानीं तत्र करपत्रं किमपि नास्ति, केवलं विद्याधरीपुस्तके यदस्ति तदेव वयम् अग्रे अग्रिमसप्ताहे पठामः. अस्तु, तर्हि धन्यवादः. नमस्कारः.
धन्यवादः महोदय.
धन्यवादः.
धन्यवादः महोदय.